परिष्कान्तं समरे चिन्तयास्थितं रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितं दैवतश्च समागम्य द्रष्टुमभ्यागतो रणम् उपगम्याब्रवीत् रामम् अगस्त्यो भगवान् सदा राम राम महाबाहो शृणु गुह्यं सनातनं येन सर्वानरीन् वत्स समरे विजयश्यसे आतिथ्यहृदयं पुण्यं सर्वशत्रुविनाशनं जयावहां जपं नित्यम् अक्षयं परमं शिवम् सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनं चिन्ताशोकप्रशमनम् आयुर्वर्धनमुत्तमम् रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतं पूजय स्वविवस्वन्तं भास्करं भुवनेश्वरं सर्वदेवात्मकोहेश तेजस्विरश्मिभावनः एष देवासुरगणान् लोकान् पाति गभस्तिभिः एष ब्रह्माश्च विष्णुश्च शिवः स्कन्दः प्रजापतिः महेन्द्रो धनदः कालो यमः सोमो यपाम्पति पितिरो वसुवः साध्या अश्विन्नौ मरुतो मनुः वायुर्वह्निः प्रजा प्राण ऋतुकर्ता प्रभाकरः आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् सुवर्णसदृशो भानुर् हिरण्यरेता दिवाकरः हरितश्वः सहस्रार्चि सप्तसप्तिर्मरीचिमान् तिमिरोन्मथनः शम्भु त्वष्टामार्ताण्डकुंशुमान् हिरण्यगर्भः शिशिर तपनो भस्करो रवहि अग्निगर्भोदिते पुत्रः शङ्खः शिशिरनाशनः व्योमनाथस्तमो भेदि ऋग्यजुः सामपारगः घनवृष्टिरपां मित्रो विन्द्यः वीति प्लवङ्गमः आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः कविर्विश्वो महातेजः रक्तः सर्वद्भवोद्भवः नक्षत्रग्रहताराणाम् अधिपो विश्वभावनः तेजसामपि तेजस्वी द्वादशात्मनमोऽस्तु ते नमः पूर्वाय गिरये पश्चिमायात्रये नमः ज्योतिर्गणानां पतये दिनाधिपतये नमः जयाय जयभद्राय हर्यश्वाय नमो नमः नमो नमः सहस्रांशो आदित्याय नमो नमः नम उग्राय वीराय सारङ्गाय नमो नमः नमः पद्मप्रबोधाय प्रचण्डाय नमोस्तुते ब्रह्मेशानाय च्युतेशाय सूराय आदित्यवर्चसे भास्वते सर्वभक्षाय रौद्राय वपुषे नमः तमोघ्नाय हिमघ्नाय शत्रुघ्नाय मितात्मने पितृघ्नाय देवाय ज्योतिषां पतये नमः। चामीकराभाय हर्ये विश्वकर्मणे नमस्तमोऽभ्यनिघ्नाय रुचये लोकसाक्षिणे नाशत्यैष वयभूतं तमेष स्रजति प्रभुः पायत्येष तपत्येष वर्षत्येष गवस्तिभिः एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणां देवाश्च क्रतवश्चैव क्रतूनां फलमेव च यानि कृत्यानि लोकेषु सर्वेषु परमं प्रभुः। तेन मापत्सु कृष्णेषु कान्तारेषु भयेषु च कीर्तियन् पुरुषः कश्चिन् नावसीदति राघव पूजयस्मै नमेकाग्रो देवदेवं जगत्पतिम् एतत् त्रिगुणीतं जत्वा युद्धेषु विजयिष्यसि अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि एव मुक्ता ततो गस्त्यो जगाम स यथा गतम् एतच्छ्रुत्वा महातेज नष्टक्षोको भवत्तदा धारयामास सुप्रीतो राघव प्रयतात्मवान् आदित्यं प्रेक्षे चक्वेदं परमं हर्षमवात्मवान् तिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् रावणं प्रेक्ष्य रसात्मा जयार्थं समुपागमतं सर्वयत्नेन महता व्रतस्तस्य वधे भवत
अथर्वीर वदन निरीक्ष्य रामं मुदित मनाः परमं प्रहर्षमाणः निशिचरपति संचयं विदित्वा सुरगण मध्यगतो वचस्वरी।